नमस्सर्वेभ्यः अद्य विभक्तिवर्गे विंशः पाठः मे मासस्य चतुर्दशः दिनाङ्कः रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरसमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो पञ्चमी विभक्तौ किञ्चिदवशिष्टं वर्तते ततः पूर्वं किञ्चित् पुनरावर्तनं कुर्मः पञ्चमी विभक्तिः अपादानवाचकात् पञ्चमी विभक्तिः भवति अपादानं नाम किम् इत्यत्र बहुविधानि अपादानानि सन्ति तत्र त्रीणि अपादानानि अस्माभिः दृष्टानि प्रथमं भवति विभागस्य अवधिः यत्र विभागः अस्ति तत्र अवधिभूतम् So where there is a separation of two objects, one moves away from the other. So that from, the point from where the separation takes place is called apadana. Tasya panchami vibhakti bhavati. Yatha vrikshat patati, gramat agachati, shalayah anayati, patati gachati agachati, anayati, dadati svikaroti, इत्यादयः सर्वाः क्रियाः विभागं जनयन्ति अतः तेषां तासां प्रयोगे अपादानं भवति द्वितीयम् अपादानं भवति भयस्य अथवा रक्षणस्य कारणं यत्र यत्र भयम् अथवा रक्षणम् इत्येतयोः अथवा समानार्थकानां धातूनां प्रयोगः भवति तत्र भयस्य मूलं सो दट् विच् कासस् फियर् is called apadanam vyaghrat bhitah parikshayah trastah bhitah trastah athava trasyati bibheti iti sarvani rupani svikartum shakyante chorat rakshati dushtat trayate rakshati trayate iti samanarthaka तृतीयम् अपादानं भवति नदीनां मूलम् अथवा प्रभवः यत्र नद्याः प्रथमः प्रकाशः द फस्ट् प्लेस् वेर् द रिवर् बिकम्स् विसिबल् इस् काल्ड् प्रभव यथा गङ्गा हिमालयात् प्रभवति कावेरी भागमण्डलात् प्रभवति इत्यादि प्रयोगाः अत्र सर्वत्र पञ्चमी विभक्तिः दृश्यते पञ्चमी विभक्तेः रूपाणि अपि दृष्टानि नामपदानां तथा सर्वनाम्नां रूपाणि उपपदपञ्चमी अपि दृष्टा यत्र कस्यचित् विशिष्टस्य पदस्य योगे पञ्चमी विभक्तिः भवति यथा बहिः इत्यस्ति बहिःशब्दस्य योगे पञ्चमी विभक्तिः ग्रामाद् बहिः शालायाः बहिः outside the whatever village or the school or the house sarvatra panchami vibhaktihi drishyate purva para asti before after or earlier later ityeteshu artheshu yada prayogah bhavati tada kasmat purvam kasmat param ubhayatrapi panchami vibhaktihi drishyate snanat purvam before taking bath bhojanat param after meals evameva lakshmanat purvah bharatah bharata is earlier or older to lakshmana ityarthepi etayoh prayogah bhavati sarvatra panchami vibhaktihi drishyate rute vina ityetayoh prayoge api panchami vibhaktihi drishyate ubhavapi samanarthakau both of these are Rute is without ityarthaha. Rute ityasya prayoge panchami eva bhavati. Krishna drute sharanam nasti. There is no refuge other than Krishna. Okay. So vina ityanena yoge tu dvitiya, tritiya, panchami iti tisraha vibhaktayaha bhavanti. All three vibhaktis are used in association with vina. Jalam vina meena na jeevanti, jalena vina meena na jeevanti, jalat vina meena na jeevanti iti tisraha vibhaktayaha vina ityanena yoge bhavanti. Adya panchami vibhaktehe itopi ekahamshaha nyatavyaha tatah purvam kanchana prayogan pashyamaha. Panchami vibhaktehe rupam vishishya pulnapumsakayoho ekavachane rupam itrasti yatha vrikshat patati grihat prasthitah mitrat svikaroti himalayat prabhavati snanat purvam bhojanat param etan prayogan pashyantu evameva vrikshad anayati grihad agatah mitrad bibheti chorad drakshati gramad bahihi krishnad vina tyevam prayogaha santi kvachit takaraha shruyate kvachit dakaraha tatra niyamah asti sah niyamah jnayate ched varam asmabhihi kim kriyate prayah sarvatra takarasya rupam upayujyate. Assuming there is nothing ahead, or assuming that there is there is no samhita or nothing coming ahead, but actually when we are using it, it is better to use both forms depending on the context. So it is a very simple sandhi called just a sandhi, which most of you must be familiar with, but I'll just reiterate the rules so that there is no confusion. So jastvam chartvam iti dvayamasti. If the following letter, if the letter which follows your whichever letter, say for example the panchami vibhakti word in this context, yadi sahavarnaha vargasya prathamaha athava dvitiyaha varnaha, say ka kha cha cha ta tha ta tha pa pha, varneshu pancha vargaha santi kavargaha, chavargaha, tavargaha, tavargaha, pavargaha iti. Tatra prativargam prathamaha dvitiyaha varnaha athava sha sha sa ityete varnaha yadi parataha santi. So if the following letter is one of these, then we use the first letter of the varga, that is takara. Yatha vrikshat patati. Atra pakaraha, it's a first letter of a varga. Evam grihat prasthitah, atrapi pakaraha eteshu antarbhavati, vargasya prathama varnah. Mitrat svikaroti, sakaraha asti, so among shashas. So if the letter which follows pakara or dakara, whichever, if the following letter is one of these, the first or the second letter of any varga or shashas, then we use takara. So other letters, if it is a swara, if the following letter is a swara or third, fourth, fifth letters of a varga or yara, lava, ha, any other letter, then we have to use the third letter of the varga. That is called jash. That is why we call this as jashtva sandhi. So grihad agataha akaraha swaraha ach varnaha ataha atra grihad agataha ityeva bhavati grihat agataha iti na bhavati evam mitrad bibheti. So bibheti b iti vargasya tritiya varnaha ataha atrapi dakaraha bhavati chorad rakshati इति य र लवः एतेषु अस्ति. अतः एते वर्णाः यदा सन्ति, एनी अदर लेटर अदर देन दीस, सो फर्स्ट और सेकंड लेटर ऑफ अ वर्ग एंड श श स, सो व्हेन दीस आर फॉलोइंग वी यूज द फर्स्ट लेटर ऑफ द वर्ग, इट इज कॉल्ड चर और चर्त्व संधि एज इट इज नोन. सो इफ द फॉलोइंग लेटर इज अस्वर, एनी अदर letter of the varga, that is the third, fourth, fifth letters of each varga, or yara lavaha, then we use the third letter of the varga. Okay, so ayam eva niyamaha. You have to decide based on the letter which follows. Okay, danim gramaha ityasti tasya panchami vibhakti upayujya vakyani rachaniyani तकारस्य वा दकारस्य वा इत्यत्र अवधानं भवेत्. सो प्लीज रेज योर हैंड्स. लक्ष्मी
नमस्ते मैडम. ग्रामात् आगच्छति,
ग्रामाद् आगच्छति, द
ग्रामाद् ओके ग्रामाद् आगच्छति, ग्रामात् स्वीकरोति, ग्रामाद् गच्छति, ग्रामाद् एव, ग्रामात् प्रस्थितः, ग्रामाद् उद्भवतः उद्भूतः
उद्भूतः. सम्यक्. सो उद्भूतः इत्यस्य रेजिंग और ओरिजिनेटिंग फ्रॉम इत्यर्थः. सो ग्रामाद् आगच्छति, ग्रामाद् गच्छति, ग्रामादेव, ग्रामाद् उद्भूतः, एतेषु दकारः श्रूयते, ग्रामात् स्वीकरोति, ग्रामात् प्रस्थितः इत्यत्र तकारः श्रूयते. अत्रापि केचन पदानि कानिचन पदानि सन्ति, तेषां संयोगः करणीयः. प्रथमपदस्य पञ्चमी विभक्तिः प्रयोक्तव्या. वेङ्कटेश्वरन् क्षम्यतां, पुनः
चोरा रक्षति,
चोरा द्वत्व न श्रुतम् न द रेफः इट् इस् द चोराद् रक्षति. सः इत्यस्य पञ्चमी
तस्मात् स्वीकरोति,
तस्मात् स्वीकरोति,
अहं मत् विभेति,
मद् विभेति, बिकॉज बकार इज थर्ड, सो यू हैव मद् विभेति. यस, धन्यवादाः. शर्मा महोदय न श्रूयते. शर्मा महोदय not able to hear you, please check your microphone if it is connected properly. Padmanabhan Mohan.
Namaste. Apanad agachati
dakara, dakara apanad agachati
chashakat pidati takara.
Yes. Excuse me, just for one moment, I'll be back. क्षम्यताम् दशकात् पिबति अग्रे Can you hear me?
Yes.
Ah, yes. Next one, please. Can you see it or not?
No, I don't see it.
Yes.
Oh. Tvam rute. Okay. Tvad rute.
Tvad rute. Dakaraha. Satyam. Tvad rute. Dhanyavada. So, next one. Mahadevan.
Ramad Vina.
Ramad Vina.
Tasmat Tishthati.
Tasmat Tishthati.
Gramat Phalam.
Gramat Phalam. फ इति वर्गस्य द्वितीय वर्णः अतः तकारः ग्रामात् फलम् थैंक यू सो अदर्स हु वुड लाइक टू वॉलंटियर प्लीज रेज योर हैंड्स एंड पार्टिसिपेट मलकोंडय्य
हरि ओम ग्रामात् दूरं दकार
हा व्याघ्रात् दूरं यस्
दूरं
हा यस् व्याघ्रात् दूरं
बहि एतात् बहिः
एतस्माद् बहिः यस् एतस्माद् बहिः
सर्पात् क्रूरः
सर्पात् क्रूरः
सकारः
आम् सकारः एवम् अयम् नियमः सर्वदा स्मर्तव्यः न केवलम् पञ्चमी विभक्तौ सर्वत्र यत्र अस्माभिः वर्गस्य प्रथमवर्णः अथवा वर्गीयव्यञ्जनानि उपयुज्यन्ते सो वेन् एवर् वी आर् यूसिङ्ग् द फस्ट् फोर् लेटर्स् आफ् अ वर्ग से फार् एक्साम्पल् सुहृत् आर् शरत् आर् वाट् एवर् एनी आफ् द वर्णस् भिषक् देर् आर् सो मेनि सो सर्वत्र अयमेव नियमः यदि अग्रे विद्यमानः वर्णः वर्गस्य प्रथमद्वितीयवर्णः अथवा षष तर्हि प्रथमवर्णः उपयुज्यते अन्यत्र तृतीयवर्णः उपयुज्यते सो एव्रीवेर् वि केन् दिस् रूल् हेस् टु बि रिमेम्बर्ड् एण्ड् यूस्ड् इदानीं पञ्चमीविभक्तिं प्रति आगच्छामः अन्तिमः एकः प्रयोगः अत्र दृश्यते So, there are other cases where Panchami is used, but we are looking at some of the major or the important or commonly used prayogas. So, Bhinnaha, Anyaha, Itaraha, Ityete Shabdaha, Yada Prayujyante, Tada Panchami Vibhaktihi Bhavati. Yatha, Ramaha, Krishnad, Bhinnaha, Na. Rama is not different from Krishna. कृष्णात् भिन्नः यदि भिन्नः इत्यस्ति तथापि भवति भिन्नः न भिन्नः इति शब्देन योगे पञ्चमी विभक्तिः भवति अत्रापि पश्यतु भ इति वर्गस्य चतुर्थवर्णः अतः दकारः अस्ति कृष्णाद् भिन्नः आचार्याद् अन्या गतिः नास्ति सो अ इति अग्रे स्वरः अतः दकारः आचार्याद् अन्या So other than the Acharya, there is no refuge. Mitrad itaraha kaha sahayyam karoti. Other than a friend, who will help? Satrapi itaraha I iti ajvarnaha ataha dakaraha prayoktavyaha. Mitrad itaraha kaha sahayyam karoti. Evam భిన్న, అన్య, ఇతర ఇత్యేతేషు పదేషు ప్రయుక్తేషు పంచమీ విభక్తి భవతి. అత్ర ఏతేషాం పదానాం పంచమీ. సో ఏతస్మాత్ అన్యత్ శరణం న. సో దర్ ఇస్ నో రెఫ్యూజ్ అదర్ దాన్ దిస్ ఇత్యర్థే ఏతస్మాత్ ఇతి దత్తానాం పదానాం పంచమీ విభక్తి ప్రయోక్తవ్య. గీతా రామచంద్రన్.
సో అన్యత్ శరణం రామాత్
ఎస్
రామాత్ అన్యత్ శరణం న.
రామాద్ అన్యత్ శరణం నస్ నో రిఫ్యూజ్ అదర్ దాన్ రామ.
ఓకే, రామాత్ అన్య శరణం న. దేవ్యాః అన్య దేవ్యాః అన్యాః శరణం
అన్యత్
శరణం అన్యత్ అన్యత్ శరణం న.
yes.
సన్మిత్రాత్ అన్యం అన్యత్ శరణం న.
సన్మిత్రాద్ అన్యత్, బికాస్ ద ఫాలోయింగ్ లెటర్ ఇస్ ద్వారా సన్మిత్రాద్ అన్యత్ శరణం న. సమ్యక్. నెక్స్ట్ వెంకటేశ్వరన్. మహేశ్వరాద్ అన్యత్ శరణం న. సీతా స్త్రీలింగం. సీతాయాః అన్యత్ శరణం న.
సత్యం సత్యాద్ అన్యత్ శరణం న.
సత్యాద్ అన్యత్ శరణం న. సమ్యక్. అదర్స్ హుడ్ లైక్ టు ట్రై, ప్లీజ్ రేజ్ యువర్ హ్యాండ్స్. yes, Rama mahoday.
Namaste.
Dharmad anyat sharanam na.
Gangayah anyat sharanam na. Gayatryah anyat sharanam na.
Ha. గాయత్ర్యాః అన్యత్ శరణం న. శారద భగిని.
నమస్తే.
జ్ఞానాద్ అన్యత్ శరణం న.
స్వాధ్యాయాద్ అన్యత్ శరణం న. శివాద్ అన్యత్ శరణం న.
శివా ఇది స్త్రీలింగం.
శివాయాః అన్యత్ శరణం న.
హా, సమ్యక్. శివాయాః అన్యత్ శరణం న. హర్మందర్ సింగ్.
గురు చరణ గురు చరణేభ్య అన్యత్ శరణం న.
ద్వివచనం.
గురు చరణాభ్యాం అన్యత్ శరణం న.
గురు చరణాభ్యాం అన్యత్ శరణం న.
రామ లక్ష్మణాభ్యాం అన్యత్ శరణం న. సీతారామాభ్యాం అన్యత్ శరణం న.
సమ్యక్. మలకొండయ్య.
హరి ఓం. సత్యనా முனிவரேப்யஹ அன்யத் சரணம் ந.
ிந்த இத்தி பிரயோகே பஞ்சமீ விபக்தி பவதி இத்யத்ர பஞ்சமீ விபக்திம் ஸ்தகயாமஹ. சோ தேர் ஆர் அதர் கேசஸ். Pani defines many other cases of apadana itself, and there are other cases again of upapada and instances where we use panchami. So most of them, panchami is an easy vibhakti. Wherever we have from, the feeling of separation or the usage of from, there is panchami. Okay, so it is instinctive. We can know panchami mostly instinctively. So idanim sankshepena panchami vibhaktim drishtva shashti vibhaktim pratigacchamaha. Apadane panchami vibhakti yatha idanim eva drishtam vibhagasya avadhihi apadanam bhavati vrikshat patati gramad agacchati. அத்த பூர்வம் தக்கார அஸ்தி கிந்து வஸ்ததஹ கிராமாத் ஆகச்சதி இதி பவேத். பயஸ்ய காரணம் அபாதானம் பவதி தத்ர பஞ்சமி வியாக்ராத் பிபேதி சோரேப்யஹ ரக்ஷதி இதி. நத்யாஹ பிரபவஹ அதவா மூலம் ஹிமாலயாத் கங்கா பிரபவதி. உபபத பஞ்சமி பவதி பஹிஹி சப்தேன யோகே கிரஹாத் பஹிஹி ஷாலாயாஹ பஹிஹி. பூர்வ பரஷப்தயோஹ யோகே பஞ்சமீ விபக்திஹி பவதி சைத்ரஹ வைஷாகாத் பூர்வஹ ஸ்நானாத் பரம் போஜனம் கரோதி. ருதே வினா இத்யேதயோஹ பிரயோகே அபி பஞ்சமீ பவதி. ஜ்ஞானாத் ருதே கைவல்யம் நாஸ்தி. ஜலாத்வினா மீனாஹ ந ஜீவந்தி. பின்னஹ அன்யஹ இதரஹ இத்யேதேஷாம் பிரயோகே அபி பஞ்சமீ பவதி. தஸ்மாத் பின்னஹ கிருஷ்ணாத் அன்யஹ இத்யாதிஷு. பிரஷ்னாஹ சந்தி வா? எனி க்வெஸ்சன்ஸ்? ஷஷ்டி விபக்தே ஆரம்பம் குர்மஹ. ப்ளீஸ் எக்ஸ்கியூஸ் மீ ஃபார் ஜஸ்ட் அ மோமெண்ட், ஐ வில் பி பேக். மலக்கொண்டே மகோதய பிரஷ்ன அஸ்தி வா?
யதஹ இத்யுக்தே அர்த்தஹ
ఇతరః
ఇతరః తస్య అర్థం అదర్ దెన్ అదర్స్ ఇత్యర్థః ఇతరే జనాః అదర్ పీపుల్ సో తస్మాద్ ఇతరః అదర్ దెన్ హిమ్ ఇత్యర్థః Any other questions? ఏకా ప్రశ్నః ఆసీత్ రామాన్ నాస్తి పరాయణం ఇత్యత్రాపి ఉపపద పంచమీ వాతి పరం అయనం పరాయణం పరం ద గ్రేటెస్ట్ రిఫ్యూజ్ ఇత్యర్థః తత్ర పరశబ్దేన యోగే యథా పంచమీ భవతి తథైవ పరాయణ ఇత్యనేన యోగే అపి భవతి సో ఈవెన్ ఇన్ కంపారిజన్ వెన్ వి ఆర్ కంపేరింగ్ టు పీపుల్ వి యూస్ పంచమీ తస్మాత్ చతురః తస్మాత్ ఉన్నతతరః ఇత్యాది సో యూ సేయింగ్ హి ఇస్ టాలర్ దాన్ గ్రేటర్ దాన్ తస్మిన్ అర్థే అపి పంచమీ విభక్తిః భవతి అన్య ప్రశ్నాః సంతి వా అగ్రే షష్ఠీ విభక్తిః వన్ ఆఫ్ ద ఈజియెస్ట్ విభక్తీస్ అండ్ ద మోస్ట్ ఫ్రీక్వెంట్ వన్ ఆఫ్ ద మోస్ట్ ఫ్రీక్వెంట్ విభక్తీస్ ఇన్ సంస్కృత అదర్ దెన్ ద్వితీయ షష్ఠీ ఈజ్ ద మోస్ట్ ఫ్రీక్వెంట్ విభక్తి సీతా రామస్య పత్ని ఏతత్ మాలాయాః పుస్తకం సహ మాధవస్య పితా ఏషః ఆమ్రఫలస్య రసః ఏతేషు సర్వేషు షష్ఠీ విభక్తేః ప్రయోగః దృశ్యతే షష్ఠీ విభక్తిః సంబంధం బోధయతి ద్వయోః పదార్థయోః సంబంధః Any relation between two objects, two padarthas is called, is given by Shashti. Okay. So when you say Ramasya Patni, so between Rama and Patni there is a sambandha. Somala is a girl, so tasyaha pustakam. Somala tasyaha pustakasya cha kashchit sambandha. Madhavasya pita, so madhavaha. అస్తి పితా తయోః సంబంధః అస్తి ఆమ్రఫలస్య రసః ఆమ్రఫలం రసః తయోః సంబంధః అస్తి సో ఏవం సంబంధం బోధయితుం షష్ఠీ విభక్తేః ప్రయోగః భవతి సో ద్వయోః పదార్థయోః సంబంధః ఎనీ రిలేషన్ బిట్వీన్ టు ఆబ్జెక్ట్స్ ఇస్ గివెన్ బై షష్ఠీ సో ఏషః సంబంధః బహువిధః So, the sambandha can be a generally, we can treat it as a relation. So, there are different kinds of sambandha. We don't have to identify in each case, but it is good to know. So, when we are saying mama pustakam, my book, tatra swaswami bhavaha ityuchyate. A relation is the type of ownership. I own something. So, mama pustakam, mama lekhani, mama griham, ityadishu sarvatra, swaswami bhavaha, సంబంధః భవతి మమ హస్తః మై హ్యాండ్ సో అత్ర ఇట్స్ నాట్ ఓనర్షిప్ రైట్ ఐ మీన్ ఇట్స్ నాట్ లైక్ ఐ ఓన్ అ బుక్ ఐ డోంట్ ఓన్ అ హ్యాండ్ ఇట్ ఈస్ అ పార్ట్ ఆఫ్ మీ సో అంగ అంగిభావః అథవా అవయవ అవయవీభావః సో అవయవీ ఇస్ అన్ ఆర్గానిజం అండ్ అవయవ ఆర్ ద ఆర్గన్స్ అతః అవయవ అవయవీ భావః మమ హస్తః మమ శిరః మమ ఉదరం మమ పాదః వ్యాఘ్రస్య దంతాః ఏవం సర్వత్ర సింహస్య పుచ్చం ఇత్యేతేషు సర్వత్ర అవయవ అవయవీ భావః వాట్ ద షష్ఠీ డిపిక్ట్స్ ఇస్ ద సంబంధ విచ్ ఇస్ ఆఫ్ ద కైండ్ ద రిలేషన్ బిట్వీన్ అన్ ఆర్గానిజం అండ్ ఇట్స్ ఆర్గన్స్ ఓకే సే మమ పుత్రీ So this is again a different relation. I don't own my daughter and she is also not a part of me, not my organ. So this is called Janya Janaka Bhavaha. So there is one thing coming from the other, originating from the other. So that is what we call the Janya Janaka Bhava. okay, a relation which depicts that one is derived or originated from the other. So mama putri is where I am the janaka and putri is the janya. So I am the one who gave birth to and putri is the one who was born. Similarly, when I say mama mata, it is the same sambandha, but the role is reversed. Right? I am janya and mata is janaka. Mata was the one who gave birth and I am the janya. Devam janya janaka bhavaha sambandhaha. Mama deshaha. So this is again a different kind. It is not none of the above. Right? So if we go on exploring, this is not a definitive list. The list of sambandhas is not like one a particular, only this many. So the Bhashyakara himself says, Ekashatam Shashtyarthaha. So there are more than 100 different kinds of sambandha which are depicted by Shashti. In any case, all these are relations or sambandha. So all these can be depicted by Shashti Vibhakti. So that is why Shashti is one of the most frequent Vibhaktis, because it simply indicates any kind of sambandha between any two. Okay. So that is Shashti in general. We indicate sambandha between two different things. Shashti Vibhaktehe Rupani. I forgot to make a slide. I think, you know, Pullinge Balasya Balayohu Balanam iti rupam Balasya Strilinge Balikayaha evam Nadyaha athava Naryaha Napumsakalinge Phalasya Jnanasya ityevam Rupani Bhavanti. Idanim Ramaha ityasti Tasya kaha kaha sambandhaha iti yatha ramaha etasya putraha athava etasyaha putraha etasya shishyaha ityadi. So those who would like to volunteer, please raise your hands. Venkateshwaran Mahalaya.
Ramaha Dasharathasya Putra.
Ramaha Dasharathasya Putra.
Ramaha Ajasya Pautra.
Ajasya Pautraha. Pautraha grandson. Putrasya Putraha Pautraha. Ajaha Dasharathasya Pita. Ataha Ajasya Pautraha Ramaha.
Ramaha Vasishthasya Shishyaha.
Ramaha Vasishthasya Shishyaha. Sharma Mahodaya.
Ramaha Lakshmanasya Agrajaha.
Ramaha Lakshmanasya Agrajaha.
Ramaha Lavasya Pita.
Lavasya Pita.
Ramaha Ravanasya Shatruhu.
Ravanasya Shatruhu. Harmandar Singh.
Ramaha Kausalyayah Sutaha.
Kausalyayah Sutaha Ramaha.
Ramaha Sitayah Patih.
Sitayah Patih.
Ramaha Ahalyayah Mokshadayakah.
Right. Ahalyayah Mokshadayakah. The one who gave release or salvation to Ahalya. Gita.
Shabariyaha Ramaha Shabariyaha Aradhyaha.
Shabariyaha Aradhyaha. So worshipped by Shabari, the one who is the deity of Shabari.
Shabari. Ramaha Indumatyaha Napta.
Indumatyaha Napta. So we have different words for denoting grandchildren in Sanskrita. Pautraha Pautri Ityasti. Putrasya Putraha Pautraha. Evam Putriyaha Putraha. The son of the daughter is called Dauhitraha or Dauhitri.
Okay.
And then and then Napta, the word Napta is used in general for a grandson. Putrasya Dauhitushcha Putraha is called Napta.
Okay.
So Indumati was the wife of Aja. Ataha Indumatyaha Napta, grandson of Indumati.
Ramaha Ayodhyayaha Raja.
Ayodhyayaha Raja. So next, Krishna. Rama.
Vasudevasya putraha.
Krishna ha, Vasudevasya putraha.
Kamsasya. Bhagineya.
Bhagineya
Krishna.
Kamsasya bhagineya. Bhaginyaha putraha bhagineya. Sister's son is called Bhagineya, nephew.
Balaramasya Anujaha Krishnaha.
Krishnaha Balaramasya Anujaha. Dhanyavadaha.
Purvameva.
Kshamyatam. Yes. Vadatu. Kshamyatam. Ramamagini, prashna hasti va?
Yes. The Krishnasya prayogam purvameva kartavyam khalu.
Antepi Balaramasya anujaha Krishnaha. Krishnaha Balaramasya anujaha. Bhedaha nasti samskrate. Prayena padakrame bhedena arthe bhedaha na bhavati. Prayena in samskrate. So.
धन्यवाद
मलकोंडय्या
हरि ओम कृष्णः अर्जुनस्य मित्रम् कृष्णः प्रद्युम्नस्य पिता कृष्णः Aniruddhasya Pitamahaha.
Aniruddhasya Pitamahaha. Pitamaha, grandfather. Father's father is Pitamahaha. Others would like to try? Those who have not tried so far? Yes, Paul.
Devakyaha. Oh, Krishnaha Devakyaha Sutaha.
Ha, Devakyaha Sutaha.
Krishnaha Rukmini Rukminyaha Pitaha.
Patihi.
Ha, Patihi. Yeah.
Rukminyaha Patihi.
Patihi.
Hmm.
Krishna Draupadyaha Rakshakaha.
Draupadyaha Rakshakaha. Hmm. Anybody else? Sharada.
Krishna Radhayaha Priyaha.
Hmm. राधायाः प्रियः.
कृष्णः पूतनायाः घातकः. कृष्णः यशोदायाः वत्सः.
वत्सः is the son or the dear beloved of Yashoda. So evam sambandha vachakam. So don't be confused that sambandha is not just a relation. As I said, it's not a blood relation or thing. So sambandha is any kind of relation between any two padarthas which is given by Shashti. So these are just samples. So now if you can tell about yourself, so the names of, so kasya putraha athava kasya putri, kasyaha pautraha athava pautri, evam shashti vibhaktim upayujya kanichana vakyani rachayantu. Okay, so about yourself, say for example aham kasya putraha kasya putri, ityevam kramena vakyani, say aham ramanathasya putri, aham nagaratnayaha putri, aham se aham jayaramasya patni, aham trayaha mata, evam kramena svasya sambandhaha kanichana vakyarthameva. So there is nothing, I mean you can give real or imaginary names, it's not about names, it's about using shashti vibhakti on the names. Yes. Balachandra.
Aham Radha Krishnasya Putraha.
Evam Sarvatra.
Aham Narayana. Aham Narayanasya Putraha. Aham Subrahmanyasya Dauhitraha. Aham Gitayah Patihi. Aham Narayanasya Sahodaraha. Aham Sri Hariyah Pita.
Sri Hari.
Sri Hari.
Iti
Hari is my son.
Sri Harehe Pita.
Sri Harehe Pita. Aham Sri Harehe Pita. Aham. Sundarasya Mitra. Aham Saumya Krishnapurayaah Shishya.
Saumyaah Shishya. Samyak. Atra Prathama Dvitiya Madhye Strilingasya Upayogah. Kasyaah Putraha. Kasyaha pautraha. Your mother's evam, grandmother's names. So,
okay.
Strilingasya bhavati.
Have to continue, madam, is it?
Yes, I mean just two sentences so if you can use strilinga also.
Okay. Aham Sitayaha. Oh.
Putraha. No, no. You are still putraha.
Putraha, already.
No, pituhu nama uktavan. Kim, kasya putraha iti. Kasyaha. You can give two sentences with putraha. Aham Ramanathasya putri, aham Nagaratnayaha putri.
Oh, okay. Aham Sitayaha putraha. Aham pati.
Chintanasi.
I forget my grandmother's name. Again,
no problem. Sorry.
Sita Lakshmi. See, again, my grandmother is also a Sita, Sita only. Aham Sita Lakshmiyah, Sita Lakshmiyah, Pautraha.
Samyak. Sita Lakshmiyah, Pautraha. Yes, others. Yes. Rama.
Namaste.
Yes.
Aham Mitrasya Putri.
Kinchi Ruchaihi. cannot hear you. It's very low. Please.
Aham. Shankarasya putri. Shruyateva?
Shruyateva datu.
Aham Shankarasya putri. Aham Rajeshwaryaha putri. Aham Meenakshiyaha pautri. Aham श्रीनिवासस्य पौत्री अहं श्रीधरस्य पत्नी अहं हेमायाः सहोदरी अहं रामभद्रस्य माता अहं शिवप्रियायाः माता अहं अनुषायाः
अनुषायाः
मित्रम् अहं सौम्यायाः शिष्या
धन्यवादाः नेक्स्ट् हरमन्दर् सिंह
अहं मक्खन सिंहस्य पुत्रः अहं शोभा सिंहस्य पौत्रः अहं गोपाल सिंहस्य दौहित्रः अहं ललितायाः पतिः अहं नरेन्द्रस्य सहोदरः अहं नेहायाः पिता अहं परमपालस्य मित्रम् अहं सौम्यायाः शिष्यः
धन्यवादाः सम्यक् मे बी ऐ शुड् नाट् हव् इन्क्लूडेड् दिस् लास्ट् वन् एनिवे सो अदर्स् सो एनिबडी आल् आफ् यू हू वाण्ट् टु ट्रै केन् ट्रै दिस् सो दिस् लक्ष्मी
अहं शङ्करस्य पुत्री अहं सौन्दर्राजस्य पौत्री अहं रङ्गनाथस्य सौहित्री अहं कृष्णस्य पत्नी अहं रम्यायाः सहोदरी अहं नारायणस्य माता अहं राधायाः मित्रम् अहं सौम्या भगिन्याः शिष्या भगिन्याः शिष्या
सम्यक् नेक्स्ट् वेङ्कटेश्वरन्
अहं गोपालस्य अहं मीनाक्षिसुन्दरस्य पौत्रः अहं रामचन्द्रस्य दौहित्रः अहं छायायाः पतिः अहं सुरेशस्य सहोदरः अयं उपायायाः पिता अहं नरस्य मित्रम् अहं सौम्यायाः शिष्यः
सम्यक् महादेवन् महोदय
अहं राममूर्तेः पुत्रः अहम् अलमेलोः पुत्रः अहं वेङ्कटेश्वरस्य पौत्रः अहं मीनाक्ष्याः पौत्रः अहम् रामचंद्रस्य दौहित्रः. अहम् कमलायाः दौहित्रः. अहम् भवान्याः पतिः. अहम् वरदराजस्य सहोदरः. अहम् प्रभुपतेः सहोदरः. अहम् सौम्यायाः पिता. My doctor's name is also Saumya.
Yeah, yeah.
Krishnasya Mitram. Aham Sundara Shastrinaha Shishya.
Samyak. Sundara. Tamam. Anybody else would like to try this? Those who have not tried so far? Sharada.
Aham Gopalan Rajeshwaryoh Putri. Venkatraman Sharadayoh
Pautri.
Subramanyan Meenakshiyoh Dauhitri. Rajagopalanasya Patni.
Rajagopalasya.
Ramayah Sahodari. Meenakshi Manikantanayoh Mata. Anandiyah Mitram. Saumyayah Shishya.
Astu. Samyak. Anya. So we will stop here. So other cases of Shashti we will see in the next class. Shashti Vibhaktim Anuvartayamaha. As I had sent, I hope all of you have got the mail. Our website is not still in complete working condition. So I have shared a Google Drive folder. So I will upload these materials also into the same folder. And I will upload the video on YouTube. Ramo Rajamani Sada Vijayate Ramam Rameshaṁ Bhaje Ramena Bhihata Nishachara Chamoho Ramaya Tasmai Namaha Ramannasti Parayanam Parataram Ramasya Dasosmiham Rame Chitta Laya Sada Bhavatume Bho Ramama Muddhara Gurureva Gatihi Gurumeva Bhaje Gurunaiva Sahasmi Namo Gurave Naguroh Paramam Shishurasmi Guroho Matirasti Gurau Mamapahi Guroho.